हरि ओम सर्वेभ्यः नमस्काराः। अद्य सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे षोडशः भागः, फेब्रवरि मासस्य षोडशं दिनम्। येनाक्षरसमां नायमधिगम्य महेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। हरिशब्दस्य प्रक्रियाम् अधीयानाः स्मः। हेल् शब्दमञ्जर्यां दृश्यते। पाददन्तमासशब्दानां पद् दत् मास इत्यादेशा भवन्ति सर्वनामस्थाने अपि इति। या एक्चुअली द सूत्रस्य शस्प्रभृतिषु, किन्तु यत्र प्रयोगः तत्र दृश्यते, सर्वत्र नास्ति। केनाट् से जनरल् दट् इट् हेस् द आदेश इवन् इन् सर्वनामस्थानस्, इट् इस् नाट् ओन्ली फार् दीस् त्री शब्दास् आल्सो, इवन् फार् हृदयशब्द द हृत् इस् यूस्ड् समटैम्स् इन् सुप्रत्यय आल्सो। So it all depends on prayoga. Prayoganugunam kvachit shasbhinnatvepi adeshaha bhavanti. Ataeva amarakoshepi drishyate kila. Santam hran manasam manaha. Hrat iti prathamavibhakta prayogam karoti. Apad ityapi bhavati. Kintu sarvatra nasti. Prayoganugunam prayogaha bhavitum arhanti. हरिशब्दः इकारान्तः पुल्लिङ्गः, तत्रादौ हरिः हरि इत्यत्र नूतनं सूत्रं किमपि नास्ति। हरि इत्यस्मात् सुप्रत्यये ऋत्वे विसर्गे हरिः, प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घे हरि, जस् प्रत्यये परे तु जसि च इत्यनेन गुणः भवति। यस्य गुणः स्यात् जसि इति उक्त्वा जसि परे हरि अस् तिष्ठते, गुणे हरे अस् अयादेशे ऋत्वे विसर्गे हरयः इति रूपं जसि च इति नूतनं सूत्रं। सम्बोधनेऽपि हे हरि सु इति स्थिते ह्रस्वस्य गुणः इत्यनेन गुणः। सो देर् आर् त्री सूत्रस् विच् मेण्डेड् गुण फार् द हरिशब्द। वन् इस् गुण वेन् फालोड् बै जस् विच् इस् गिवेन् बै जसि च, द अदर् इस् गुण वेन् फालोड् बै सम्बुद्धि विच् इस् गिवेन् बै ह्रस्वस्य गुणः, अण्ड् द लास्ट् वन् इस् घेर्निति, यत् प्रत्यये परे गुणः घेर्गिति इति सूत्राणि। So all these are common in the same place in the Ashtadhyayi. So, Hraswasya gunaha ittanena gunaha. He hari su itasthita. Gune krate he hare su. Tasya suprateyase ing hraswat sambudhehe ittanena lopaha. He hare iti rupam. He hare, he hari, he harayaha. Harim. Ami purvaha ittanena purva rupe. Harim. Purva savarna dirghe hari. Purva savarna dirghe tasmatcha sonaf pumsi iti natveja harin. हरिं हरि हरीन्। टा प्रत्यये परे तु घिसंज्ञां निमित्तीकृत्य शेषोघ्यसखि, अनदीसंज्ञौ ह्रस्वौ यौ विवर्ण उवर्णौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् इत्युक्तत्वात् ह्रस्वैकारान्तस्य ह्रस्वौकारान्तस्य च घि इति संज्ञा भवति। घिसंज्ञायां सत्याम् आङो नास्त्रियाम्। आङः आङ् इति टा संज्ञा इति उक्तं। टा इति प्रत्ययस्य आङ् इति पाणिनेः संज्ञा। टा प्रत्ययस्य स्थाने ना इति आदेशः भवति अस्त्रियां, स्त्रीलिङ्गे तु नास्ति। हरि आ इति स्थिते नाभावे हरि ना, ततोणत्वे हरिणा, हरिणा हरिभ्यां हरिभिः इत्यत्र किमपि नास्ति। ततः घेर्निति घिसम्यकस्य, इदमपि सूत्रम् अधीतं, घिसम्यकस्य निति सुपि गुणः स्यात् इति उच्यते। ङित् प्रत्यये सुप्रत्यये, सुप्रत्ययः यः ङित् तस्मिन् परतः घिसंज्ञकस्य, घिसंज्ञा यस्य अस्ति तस्य अङ्गस्य गुणो भवति इति सूत्रार्थः। यथा हरि इत्यस्मात् ङे प्रत्ययः चतुर्थीयकवचने, ङे इत्यत्र ङकारस्य लशक्वतधिते इति इत्संज्ञा, तस्मादयं ङित्। ङित्वात् घेर्ङिति इति गुणे हरे ये, ततः एचोयवायावः इत्यनेन अयादेशे हरये इति रूपं, हरये हरिभ्यां हरिभ्यः। थिङ्क् वि स्टाप् हियर्। I don't know if I went through the Dalakritya for this sutra. Gheh kim? Ghi samyakasya eva nit pratyaye pare gunaha. Kimartham tatha achate sakhye. Sakhi shabdasya tu ghi samya nasti. Shesho ghi asakhi. Sakhi vardyam eva ghi samyakam bhavati. Tasma sakhi shabdasya nit pratyaye pare gunaha na bhavati. Sakhi e itasthite. Iko vena sitinena ena adeshe sakhye bhavati. असखी शेषोघे सखी इति संज्ञा सूत्रे असखी इति निषिद्धत्वात् सखी सम्यसे घे सम्या न भवति. नेक्स्ट वी हैव अ कपल मोर दलकृत्यास. निति किम्? नित प्रत्यये परे एव गुणः इति किमर्थम उच्यते? हरिभ्याम यत्र नित्वं नास्ति भ्याम प्रत्ययः सः न नित अकारस्य सम्या नास्ति तस्मात् तस्मिन् परतः गुणः न भवति. हरिभ्याम इत्येव रूपं न तु हरेभ्याम. सुपि किम्? नित् प्रत्यये परतः इति अस्तु. सुपि इति किमर्थम् अनुवर्तनीयम्? सुप्रत्यये परे एव गुणः इति किमर्थम् इति चेत् पट्वी इति उदाहरणं दीयते दीक्षितैः. एग्जाम्पल् आफ् पट्वी. पटु इति शब्दात् ओतोगुणवचनात् इति सूत्रेण ङीप् इति स्त्रीप्रत्ययः विधीयते. सो ङीप् इस् ए प्रत्यय स्त्रीप्रत्यय सफिक्स् विच् इण्डिकेट्स् लिङ्ग स्त्रीलिङ्ग. सो इट् इस् ङित् रैट्. ङीप् इत्यत्र ङकारस्य लशकवदधिते इति इत्संज्ञा अस्ति. पटु इ इति स्थिते अत्रापि गुणः स्यात्. इफ् यु जस्ट् से घेर् ङिति, ङिति प्रत्यये परे गुणः इत्युक्ते अत्रापि गुणः स्यात्, नेष्यते गुणः. तस्मात् ङिति सुपि. ङीप् इति सुप् प्रत्ययः नास्ति. ङीप् इस् नाट् इन्क्लूडेड् इन् द सुप् प्रत्यय. देर् फोर् यु विल् नाट् गेट् गुण हियर्. इवन् दो इट् इस् ङित् अण्ड् इवन् दो पटु हेस् घि संज्ञा, देर् इस् नो गुण. ङित्वमस्ति किन्तु नायं सुप् प्रत्ययः. ओके, एनी डौट्स् सो फार्? अग्रे सरामः. पञ्चमी विभक्तौ नसि प्रत्ययः. नसि प्रत्यये ङकारस्य इकारस्य चेत् संज्ञायाम् अस् इति शिष्यते. हरि अस्. अयमपि ङित् प्रत्ययः. दिस् सफिक्स् दिस् प्रत्यय इस् आल्सो ङित्. सो घेर्ङिति विल् अप्लै. घेर्ङिति इत्यनेन गुणे कृते किं भवति? हरे अस्. इकारस्य गुणत्वेन एकारः, गुणे कृते हरे अस्. इदानीं किं भवेत् इति प्रश्नः. लैक् वी हेड् इन् जस् देर् शुड् बि अयादेश. यजोयवायावः इति प्राप्नोति किन्तु न भवति. रैट्? वि डु नाट् हेव् द रूपा इस् नाट् हरयः फार् पञ्चमी अण्ड् षष्ठी विभक्ति. वाट् इस् द रूपा आफ् हरिशब्द इन् पञ्चमी एकवचनं? हरिशब्दस्य पञ्चमी एकवचने किं रूपम्? वसुजि हरेः. सत्यं, हरयः इति न भवति, हरेः इति रूपं. सो हरेः इति रूपं साधयितुं किं करणीयं? हरे अस् इत्यस्ति. सकारस्य ऋत्वविसर्गे विसर्गः लभ्यते. हरे अह इत्यस्ति, अनेन हरेः इति प्राप्तव्यं. किं क्रियते? नसिङ्गसोश्च इति अग्रिमं सूत्रं. नसिङ्गसोः च तत् ङसि प्रत्यये परे ङसो ङस् प्रत्यये परे किं भवति? अमिपूर्वः इति सूत्रात् पूर्वः इति अनुवर्तते. एङः पदान्तादति इति सूत्रात् एङः इति अनुवर्तते. अति इत्यपि अनुवर्तते. एकः पूर्वपरयोः इत्यधिकारस्तु चलत्येव. एकः पूर्वपरयोः इत्यधिकारः कः अर्थः? एङः एङ् वर्णात् ङसि ङसोः अतिपरे. When an ing letter, that is ekara or okara, is followed by the akara, hraswa akara of ngasi or ngas. Kim bhavati? Purva rupam ekadeshah bhavati. Purva rupa, that is either the ekara or okara will be the ekadesha. Like we have hare as ityasti, ekaraha eng varnaha, ngasi pratyasya ati, arthate hraswa akare pare, purva rupam nama ekaraha ubhayohusthane ekadeshah bhavati. नसिङ्गसोश्च इति पूर्वरूपत्वेन एकारे कृते हरेस् इति जातम्. अनन्तरं सकारस्य ससजुषोरुः इति ऋत्वं खलवसानयोर्विसर्जनीयः इति विसर्गः हरेः. ಹರಿ ಅಸ್ ಘೇರ್ಮಿತಿ ಇದೆ ಗುಣ ಹರೇ ಅಸ್ ನಸಿಂಗಸೋಷ್ಟ ಇತಿ ಪೂರ್ವರೂಪಂ ಹರೇಸ್ ಋತ್ವಂ ವಿಸರ್ಗ. ಸೊ ವಿ ಹ್ಯಾವ್ ಹರೇಹೆ. ಓಕೆ, ಸೇಮ್ ಥಿಂಗ್ ವಿಲ್ ಹ್ಯಾಪನ್ ಇನ್ ಷಷ್ಠಿ ಏಕವಚನ ಆಲ್ಸೋ, ಬಿಕಾಸ್ ಬೋತ್ ಆರ್ ನಿತ್ ಪ್ರತ್ಯಯ, ವಿ ಹ್ಯಾವ್ ಘೇರ್ನೀತಿ ಇತಿ ಗುಣ ಭವತಿ, ತತಃ ನಸಿಂಗಸೋಷ್ಟ ಇತಿ ಪೂರ್ವರೂಪಂ ಋತ್ವಂ ವಿಸರ್ಗ. ಸೊ ಇನ್ ಬೋತ್ ಪಂಚಮಿ ಆ್ಯಂಡ್ ಷಷ್ಠಿ ಏಕವಚನ ದ ಫಾರ್ಮ್ ಇಸ್ ಹರೇಹೆ. ಹರೇಹೆ ಹರಿಭ್ಯಾಂ ಹರಿಭ್ಯಃ ಹರೇಹೆ ತತಃ ಓಸ್ ಪ್ರತ್ಯಯ ಷಷ್ಠಿ ದ್ವಿವಚನೆ ಹರಿ ಓಸ್ ಕಿಂ ಭವತಿ, ವಾಟ್ ವಿಲ್ ಹ್ಯಾಪನ್ ಹಿಯರ್. ಹೇಮಾ ಕಿಂ ಸೂತ್ರಂ ಹರಿ ಓಸ್ ಇತ್ಯಸ್ತಿ, ಕಿಂ ಕಾರ್ಯಂ ಭವತಿ. ವೆರಿ ಈಸಿ, ಐ ಮೀನ್ ಇಟ್ಸ್ what else can we apply? ನಥಿಂಗ್ ಎಲ್ಸ್. ಇಟ್ ಇಸ್ ಇಕಾರಸ್ಯ ಇಕಃ ಅಚಿ ಪರೆ ಎಣಾದೇಶ ಇಕೋ ಎಣಸಿ ಇತ್ತನೇನ ಎಣ್ ಭವತಿ. ದಟ್ ವಾಸ್ ಕರೆಕ್ಟ್. ಸೊ ಹರಿಯೋಸ್ ಇಕೋ ಎಣಸಿ ಇತಿ ಎಣ್ತ್ವೇನ ಯಕಾರೆ ಹರಿಯೋಸ್ ಪುನಃ ಋತ್ವಂ ವಿಸರ್ಗ ಹರಿಯೋಃ. ಹರೇಃ ಹರಿಯೋಃ ಹರಿ ಆಂ ಕಿಂ ಕ್ಯಾನ್ ಸಂಬಡಿ ತೆಲ್ ದ ಪ್ರಕ್ರಿಯ. ದ ಪ್ರಕ್ರಿಯ ಇಸ್ ಆಲ್ರೆಡಿ ಫೆಮಿಲಿಯರ್. It's the same as what we did for Rama Shabda. So if you remember Rama Shabda, you can easily get this also. Priya says, it's not, Hraswanadhyapo Nuti, right? ಸೊ ಹ್ರಸ್ವನದ್ಯಾಪೋ ನುಟ್ ಇತ್ಯನೇನ ನುಡಾಗಮಃ ಹ್ರಸ್ವಾಂತಾತ್ ನದ್ಯಂತಾತ್ ಆಬಂತಾಚ್ಚಾಂಗಾತ್ ಪರಸ್ಯ ಆಮಃ ನುಡಾಗಮಃ ಸ್ಯಾತ್. ವೆನ್ ಅನ್ ಆಮ್ ಇಸ್ ಪ್ರಿಸೀಡೆಡ್ ಬೈ ಹ್ರಸ್ವಸ್ವರ ಆರ್ ಎ ನದೀ ಸಂಜ್ಞ ವರ್ಡ್ ಆರ್ ಆಪ್ ಆಬಂತಂ, ದೆನ್ ಇಟ್ ಗೆಟ್ಸ್ ನುಟ್ ಆಸ್ ದ ಆಗಮ. ದ ಆಗಮ ಕಮ್ಸ್ ಬಿಫೋರ್ ಆಮ್ ಬಿಕಾಸ್ ಆಫ್ ಅದ್ಯಂತೌ ಟಕಿತೌ. ಸೊ ಯು ಹ್ಯಾವ್ ಹರಿ ನ ಆಮ್ ನುಟಿ ಕೃತೆ ನಾಮ್ ನಾಮಿ ಪರೇ ದೀರ್ಘ ಸ್ಯಾತ್ ಇತಿ ಸೂತ್ರೇಣ ಪೂರ್ವಸ್ಯ ಇಕಾರಸ್ಯ ದೀರ್ಘ ಹರೀ ನಾಮ್ ಇತಿ ಭವತಿ. ತತಃ ಅಟ್ಕುಪಾಂಗಂ ವಿವಾಯೇಪಿ ಇತ್ಯನೇನ ಣತ್ವೇ ಹರೀನಾಂ ರೇಫಾತ್ ಪರಸ್ಯ ನಕಾರಸ್ಯ ಅಡ್ವ್ಯವಾಯೇ ನಕಾರಃ ಭವತಿ ಇತ್ಯುಕ್ತತ್ವಾತ್ ಹರೇಃ ಹರಿಯೋಃ ಹರೀಣಾಂ. ಲೈಕ್ ವಿ ಗಾಟ್ ರಾಮಾಣಾಂ, ಸೇಮ್ ಥಿಂಗ್ ವಿಲ್ ಅಪ್ಲೈ ಇನ್ ಹರೀಣಾಂ. ನೆಕ್ಸ್ಟ್ ಹರಿ ನಿ ಪ್ರತ್ಯಯ ಅಸ್ತಿ ಹರಿ ಇ ಇತ್ಯಸ್ತಿ. ಅತ್ರಾಪಿ ಘೇರ್ನಿತಿ ಇತ್ಯನೇನ ಗುಣಃ ಪ್ರಾಪ್ನೋತಿ ಕಿಂತು ನ ಭವತಿ ತದಪವಾದತ್ವೇನ ಅಚ್ಚಘೇಹ ಇತಿ ಅಗ್ರಿಮಂ ಸೂತ್ರಂ. ಪದತ್ರಯಂ ವಿದ್ಯತೆ ಅತ್ ಚ ಘೇಹ ಇತಿ ನೇರಾಂ ನದ್ಯಾಂ ನೀಭ್ಯಃ ಇತಿ ಸೂತ್ರಾತ್ ನೇಹ ಇತಿ ಅನುವರ್ತತೆ, ಇದುದ್ಭ್ಯಾಂ ಇತಿ ಸೂತ್ರಂ ಅನುವರ್ತತೆ, ಔತ್ ಇತಿ ಸೂತ್ರಮಪಿ ಅನುವರ್ತತೆ. ಸೊ ಇದುದ್ಭ್ಯಾಂ ಇತ್ ಉತ್ ಹ್ರಸ್ವೈಕಾರಾತ್ ಹ್ರಸ್ವಕಾರಾತ್ ಇತ್ಯರ್ಥಃ. ಔತ್ ಜ್ಞೇ ಜ್ಞೇಹ ಞಿ ಪ್ರತ್ಯಯಸ್ಯ ಔತ್ ಔಕಾರಃ ಆದೇಶಃ ಭವತಿ. ಇದುದ್ಭ್ಯಾಂ ಉತ್ತರಸ್ಯ ಜ್ಞೇಹ ಔತ್ ಸ್ಯಾತ್ ಇತ್ ಉತ್ ತಪರಸ್ತತ್ಕಾಲಸ್ಯ ಇತ್ಯನೇನ ಹ್ರಸ್ವೈಕಾರಾತ್ ಹ್ರಸ್ವಕಾರಾತ್ ಪರಸ್ಯ ಜ್ಞೇಹ ಞಿ ಇತಿ ಪ್ರತ್ಯಯಸ್ಯ ಔತ್ ಇತಿ ಆದೇಶಃ ಭವತಿ. ಸೊ ದಿಟ್ ಇಸ್ ರಿಪ್ಲೇಸ್ ದ ಜ್ಞಿ ಇಸ್ ರಿಪ್ಲೇಸ್ ಬೈ ಔತ್. Also, ghehe, atcha ghehe, ghehe, if the ikaranta or ukaranta has ghi samnya, then there is an akara as the adesha for the ghi samnya part. Okay, so there are two karyas which are being mandated by the sutta. This is generally very rare in Vyakarana. From what you have seen, every step is carried out by a different sutra. Okay, there are very few sutras which combine karyas. And this is one of the sutras where there are two things which are mandated by the same sutra. So in this sutra, what is happening? Idudbhyam uttarasyam yeha utsyat. Pratyayasya iti pratyastasthane aut aukaraha adeshaha bhavati. Iti ekaha bhagaha. Ghehe, prasthata prakriti bhagasya cha, antadeshaha akaraha. Atu, alondasya ityanena akaraha antadeshaha bhavati. Iti karyadvayam kriyate anena sutrena. So this, using this sutra, you do two things. Replace the pratyaya, the suffix with aukara, and replace the ending of the prakriti with akara. Okay. So hari I ityasti ni pratyaya. Itra karya dvayam karaniyam. Always, I mean, in the few cases where one sutra gives two karyas, which one, generally we do not do both karyas in the same step. Okay. In our tradition, we apply the sutra twice to get the two things done. And in our sampradaya, what we do is whatever is heard in the sutra, we apply first. And whatever is anuvritti, we do later. For example, in this case, atichaghehe, atiti shruyate sutra, adav akaraha adeshaha kriyate. So the ghi is replaced by ati akara. So we have hara I. Hari I. Ikarasisthane akara adeshe. Hara I iti bhavati. Tataha pratyayasya sthane anenaiva sutrena. By the same sutra, the pratyaya is replaced by au. Aukara. So hara I iti sthe hara au. Ubhayam achaghehe iti sutrenaiva bhavati. So we have hara au. Idanim vridhiresi ityanena vridhau harau. Now you have hari I iti sthite. Ikarasya sthane aukaraha. Prakriteha ikarasya sthane akaraha. Tataha vridhihi harau iti rupam. Saptam ekavachane. Sorry? No. Out is the correct. I'm not aware of that actually. I should look it up. As far as I know, out is the sutra out applies for sakhi shabda where there is no ghi samya. And achaghehe will apply for wherever there is ghi samya. So I have not seen any version which combines out and achaghehe. Maybe I'll look it up and see if there is any case where such a thing happens. Sorry. No, actually, out applies only in achaghehe is more common because many words have ghisamya. The words which do not have ghisamya are very rare. So, out has very limited application. Idudbhyam uttarasya neha utsyat. So, that applies in only one or two shabdas. Where most cases, that is achaghehe which will apply. I do not know about the combining of the sutras. Okay. Out anuvritti goes only to achaghehe, correct. So the sutra sequences you have Nyeram Nadyam Nibhyaha, then you have Idudvyam, out and achaghehe. Achaghehe ends that prakarana. There is only one sutra later. So out iti anuvartate. Tenaiva nyehe ityapi anuvartate. Idudbhyam ityapi anuvartate. So it puts together all previous sutras and says that if it is ghi samya, the previous karya will also happen and also there is an antadesha for the ghi. If there is no ghi samya, only the out would apply. And you have sakhi I iti sthite. Tatra ghi samya nasti. Tasmad idam sutram na pravartate. So only out would apply, you get au, sakhi au, yana desha krute sakhyau, iti roop. Okay. So harau, haryohu, iti hari os, kovana chitanina yana deshe, haryohu, hari su, iti sthete, adesha pratyayohu, iti shattvam, in kavarga abhyam parasya, इण् अस्ति इकारः इण् वर्णः तस्मात् परस्य सकारस्य स्थाने प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशे हरिषु इति रूपम् सो हरिशब्दस्य कारान्तः पुल्लिङ्गः हरिशब्दः सो ऐ एम् श्योर् एव्रिबडि विल् नो द रूपस् वाट् यू शुड् प्राक्टिस् नौ इस् टु लुक् एट् द रूप एण्ड् रिकलेक्ट् वाट् आर् द सूत्रास् विच् वुड् अप्लै देर् Okay, Ravichandran ji says, the version in Brahmadatta book, there is, I'm sorry, what, Aut and Atsageha are combined? Huh. Okay. How does he deal with Sakhi Shabda then? The Sutra and Artha example, correct. Okay, so maybe there should be reason. Hema says even in Shirish Vasu book also there is, it is combined. So, I'll look at it, look it up. Maybe in the Bhashya there is something which says that it's the same Sutra. So, I have to look it up because in the books which I have referred so far, I haven't come across that thing. So maybe in the Ashtadhyayi Krama or in the Kashika Krama, they put the two sutras together. I'll look at it. And next class I'll tell you. So Harihi, Sasarashorahu Karvasanayor Visarchaniyaha. Hari, Ityatratu, Prathamayohu, Purva Savarnaha. Harayaha. जसि च इति गुणः एचोयवायावः ससजशोरुः खर्वसानयोर् विसर्जनीयः इत्यनेन ऋत्वं विसर्गः हे हरे इत्यत्र पुनः नूतनं सूत्रं ह्रस्वस्य गुणः इत्यनेन सम्बुद्धौ परतः गुणः ततः एङ्ह्रस्वसम्बुद्धेः इति सुलोपः हरिम् अमिपूर्वः इति पूर्वरूपं हरीन् प्रथमयोः पूर्वसवर्णः तस्माच्छसो नः पुंसि सो हरिणा इत्यत्र घिसंज्ञायां शेषोभ्यसखि इति घिसंज्ञा आङ्गोनास्त्र्याम् इति नाभावः णत्वं हरि न हरिणा हरिभ्यां हरिभिः किमपि नास्ति कार्यं हरिभ्यां हरिभिस् ऋत्वं विसर्गः हरये इत्यत्र तु घेर्णीति इति गुणः एचोयवायावः हरे ए हरये सो दिस् इस् द एक्साम्पल् विच् वि स्टडी फार् एचोयवायावः इट् इफ् यु रिमेम्बर् एचोयवायावः Whenever they give example, they say Haraye Vishnave, Nayakaha Pavakaha. This, because if the example deals with the Padanta, then there would be an optional Lopa. So to prevent that, the standard examples for Hoyavayavaha happen to be those which occur in between a word, like here, in Haraye. Haraye Haribhyam Haribhyaha, Harehe Gherniti Iti Gunaha, Nasinga Soshchaiti Purva Lopam, Hares. ऋत्वं विसर्गः हरेः हरिभ्यां हरिभ्यः हरेः हरि ओस् इकोयणसि इति अणादेशे ऋत्वविसर्गयोः हर्योः हरीणां ह्रस्वनद्यापो नुट् नामी ततः णत्वं तेन हरीणां ततः हरौ हरि इ इति स्थिते अच्चघेः इत्यनेन प्रत्ययस्य स्थाने औकारः आदेशः प्रकृतेः स्थाने अकारः अन्तादेशः हर औ इत्युक्ते वृद्धौ हरौ हर्योः हरिषु आदेशप्रत्यययोः इत्यनेन शब्दे हरिषु नी डौट्स् इन् हरिशब्द I think I'll stop here today. I'm not feeling very well, so I just thought I'll finish Hari Shabda. We'll do Sakhi Shabda in the next class. Okay. So Hari Shabda is the standard Shabda for Ikarantas. Whatever we study next, like Sakhi or Pati or anything else, is a deviation from Hari Shabda in some cases. So we'll stop here. Enachara samam nayam adhigamya maheshwarat katsanam vyakaranam tasmai praninaye namaha. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।